ओम नमो भगवते वासुदेवाय। अथ त्रिषष्टितमोऽध्यायः। श्रीशुक उवाच, अपश्यतां च निरुद्धं तद्बन्धूनां च भारत, चत्वारो वार्षिकामासा व्यतीयुरनुशोचताम्। नारदा तदुपाकर्ण्य वार्तां बद्धस्य कर्म च, प्रययुः शोणितपुरं वृष्णयः कृष्णदेवताः। प्रद्युम्नो युयुधानश्च गदसाम्बोथसारणः, नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिनः। अक्षौहिणीभिर्द्वादशभिः समेताः सर्वतो दिशम्, रुरुधुर्बाणनगरम् समन्तात् सात्वतर्षभाः। भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम् प्रेक्षमाणो रुषाविष्टस्तुल्यसैन्योऽभिनिर्ययौ। बाणार्थे भगवान् रुद्रः ससुतैः प्रमथैर्वृतः, आरुह्य नन्दिवृषभम् युयुधे रामकृष्णयोः। आसीत् सुतुमुलम् युद्धमद्भुतम् रोमहर्षणम्। कृष्णशङ्करयो राजन् प्रद्युम्न गुहयोरपि, कुम्भाण्डकूपकर्णाभ्याम् बलेन सह संयुगः। साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः। ब्रह्मादयः सुराधीशा मुनयः सिद्धचारणाः, गन्धर्वात् सरसो यक्षा विमानैर्द्रष्टुमागमन्। शङ्करानुचरान्छौरिर्भूतप्रमथगुह्यकान्, डाकिनीर्यातुधानांश्च वेतालान् स विनायकान्। प्रेतमातृपिशाचांश्च कूष्माण्डान् ब्रह्म राक्षसान्, द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः। पृथग्विधानि प्रायुङ्क्त पिनाक्यस्त्राणि शार्ङ्गिणे, प्रत्यस्त्रैः शमयामास शार्ङ्गपाणिरविस्मितः। ब्रह्मास्त्रस्य च ब्रह्मास्त्रम् वायव्यस्य च पार्वतम्, आग्नेयस्य च पार्जन्यम् नैजम् पाशुपतस्य च। मोहयित्वा तु गिरिशम् जृम्भणास्त्रेण जृम्भितम्, बाणस्य पृतनाम् शौरिर्जघानासि गदेषुभिः। स्कन्दः प्रद्युम्न बाणौघैरर्द्यमानः समन्ततः, असृग् विमुञ्चन् गात्रेभ्यः शिखिनापाक्रमद्रणात्। कुम्भाण्डः कूपकर्णश्च पेततुर्मुसलार्दितौ, दुद्रुवुस्तदनीकानि हतनाथानि सर्वतः। विशीर्यमाणम् स्वबलम् दृष्ट्वा बाणोऽत्यमर्षणः, कृष्णमभ्यद्रवत्सङ्ख्ये रथीः त्वैव सात्यकिम्। धनोऽंस्याकृत्य युगपद्बाणः पञ्चशतानि च, एकैकस्मिञ्छरौ द्वौ द्वौ सन्दधेरणदुर्मदः। तानि चिच्छेद भगवान् धनोंसि युगपद्धरिः, सारथिम् रथमश्वांश्च हत्वा शङ्खमपूरयत्। तन्माता कोटरा नाम नग्नामुक्तशिरोरुहा, पुरोवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया। ततस्तिर्यङ्मुखो नग्नामनिरीक्षन् गदाग्रजः, बाणस्य तावद्विरथश्छिन्नधन्वाविशत्पुरम्। विद्रावित्ते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात्, अभ्यधावत दाशार्हम् दहन्निव दिशो दश। अथ नारायणो देवस्तम् दृष्ट्वा व्यसृजज्वरम्, माहेश्वरो वैष्णवश्च युयुधाते ज्वराबुभौ। माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः, अलब्ध्वा भयमन्यत्र भीतो माहेश्वरो ज्वरः। शरणार्थी ऋषिकेशम् तुष्टावप्रयताञ्जलिः। ज्वर उवाच, नमामि त्वानन्तशक्तिम् परेशम् सर्वात्मानम् केवलम् ज्ञप्तिमात्रम्। विश्वोत्पत्तिस्थानसंरोधहेतुम् यत्तद्ब्रह्म ब्रह्मलिङ्गम् प्रशान्तम्। कालो दैवम् कर्म जीवः स्वभावो द्रव्यम् क्षेत्रम् प्राण आत्मा विकारः। तत्सङ्घातो बीजरोह प्रवाहस्त्वन्मायैषा तन्निषेधम् प्रपद्ये। नानाभावैर्लीलयैवोपपन्नैर्देवान् साधून् लोकसेतून् बिभर्षि। हंस्योन्मार्गान् हिंसया वर्तमानान् जन्मैतत्ते भारहाराय भूमेः। तप्तोऽहम् ते तेजसा दुःसहेन शान्तोग्रेणात्युल्बणेन ज्वरेण। तावत्तापो देहिनाम् तेऽङ्घ्रिमूलम् नो सेवेरन् यावदाशानुबद्धाः। श्रीभगवानुवाच, त्रिशिरस्ते प्रसन्नोऽस्मि व्येतुते मज्ज्वराद्भयम्, यो नौ स्मरति संवादम् तस्य त्वन्न भवेद्भयम्। इत्युक्तोच्युतमानम्य गतो माहेश्वरो ज्वरः, बाणस्तु रथमारूढः प्रागाद्योत्स्यञ्जनार्दनम्। ततो बाहुसहस्रेण नानायुधधरोऽसुरः, मुमोच परमक्रुद्धो बाणांश्चक्रायुधे नृप। तस्यास्यतोऽस्त्राण्यसकृच्चक्रेण क्षुरनेमिना चिच्छेद भगवान् बाहून् शाखा इव वनस्पतेः। बाहुषुच्छिद्यमानेषु बाणस्य भगवान् भवः भग्नानुकम्प्युपव्रज्य चक्रायुधमभाषत। श्रीरुद्र उवाच, त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये, यं पश्यन्त्यमलात्मान आकाशमिव केवलम्। नाभिर्न भोग्निर्मुखमम्बुरेतो द्यौ शीर्षमाशा श्रुतिरङ्घ्रिरूर्वी। चन्द्रो मनो यस्य दृगर्क आत्मा अहं समुद्रो जठरं भुजेन्द्रः। रोमाणि यस्य ओषधयोऽम्बुवाः केशा विरिञ्चो धिषणा विसर्गः। प्रजापतिर्हृदयं यस्य धर्मः स वै भवान् पुरुषो लोककल्पः। तवावतारो यमकुण्ठधामन् धर्मस्य गुप्त्यै जगतो भवाय। वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि सप्त। त्वमेकाद्यः पुरुषो द्वितीयस्तुर्यः स्वदृग्हेतुरहेतुरीशः। प्रतीयसेथापि यथा विकारं स्वमायया सर्वगुणप्रसिद्ध्यै। यथैव सूर्यः पीतश्छायया स्वया छायां च रूपाणि च सञ्चकास्ति। एवं गुणेनापि हितो गुणांस्त्वमात्मप्रदीपो गुणिनश्च भूमन्। यन्मायामोहितधियः पुत्रदारगृहादिषु उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे। देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः, यो नाद्रियेत त्वत्पादौ स शोच्यो यात्मवञ्चकः। यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरं, विपर्ययेन्द्रियार्थार्थं विषमत्यमृतं त्यजन्। अहं ब्रह्माथ विबुधा मुनयश्चामलाशयाः, सर्वात्मना प्रपन्नास्त्वामात्मानं प्रेष्ठमीश्वरम्। तं त्वा जगत्स्थित्युदयान्तहेतुं समं प्रशान्तं सुहृदात्मदैवम्। अनन्यमेकं जगदात्मकेतं भवापवर्गाय भजाम देवम्। अयं ममेष्टो दयितोऽनुवर्ति, मया भयं दत्तममुष्य देव। सम्पाद्यतां तद्भवतः प्रसादो यथा हिते दैत्यपतौ प्रसादः। श्रीभगवानुवाच, यदात्थ भगवंस्त्वं नः करवाम प्रियं तव, भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम्। अवध्योऽयं ममाप्येष वैरोचनिसुतोऽसुरः, प्रह्रादाय वरो दत्तो नवध्यो मे तवान्वयः। दर्पोपशमनायास्य प्रवृक्ना बाहवो मया, सूदितं च बलं भूरि यच्च भारायितं भुवः। चत्वारोऽस्य भुजा शिष्टा भविष्यन्त्यजरामराः, पार्षदमुख्यो भवतो न कुतश्चिद्भयोऽसुरः। इति लब्ध्वा भयं कृष्णं प्रणम्य शिरसा सुरः, प्राद्युम्निं रथमारोप्य सवध्वा समुपानयत्। अक्षौहिण्या परिवृतं सुवासः समलङ्कृतं, सपत्नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः। स्वराजधानीं समलङ्कृतां ध्वजैः सतोरणैरुक्षितमार्गचत्वराम्। विवेशसङ्खानकदुन्दुभिस्वनैरभ्युद्यतः पौरसुहृद्विजातिभिः। य एवं कृष्णविजयं शङ्करेण च संयुगम् संस्मरेत् प्रातरुत्थाय न तस्य स्यात् पराजयः। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धानयनं नाम त्रिषष्टितमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।